सर्वेभ्यः नमस्कारः. अद्यतनवर्गः अत्र एव आरभ्यते. अहम् अन्ध्रे अस्मि, नाम अस्मात् अर्गात् वर्गात् प्रभृति अहमेव अत्र आचार्यरूपेण भवामि. परन्तु तत्र स्वरूप महोदयेन किञ्चित् लिखितं, तत्र मत् परिचयः कश्चन दत्तः, तत् सर्वं यत् तेन लिखितं सर्वं स्मर्यताम् इति प्रार्थये. अतः अहम् अत्र एव शिष्यः अस्मि एकस्मिन् वर्गे, तत्र बुद्धवासरे वर्गे अहं सुधः अपि शिष्यः अस्मि. अतः एव केषुचित् विषयेषु ममापि स्पष्टता न स्यात् इति मम, परन्तु सर्वे इदानीं मिलित्वा तत्र सर्वे मिलित्वा एव पठामः इति प्रार्थये. इदानीं तत्र प्रेषितं मया करपत्रम्, अध्यातनः विषयः अस्ति तुदादिगणे गुणनिषेधः. वस्तुतः तत्र अध्यात्मविषयः यः सः अत्यन्तं सरलः अस्ति इति मन्ये. अतः एवं कदाचित् तत्र किलं पात्रं कारपात्रम् एव अद्य पठयिष्यामः इति मन्ये. नो चेत् तर्हि अग्रिमे वर्गे तत्र अन्ते नयामः. इदानीं वस्तुतः तत्र अन्यत् किमपि वक्तव्यं, तत्र आरम्भे सर्वदा अस्माभिः तत्र पुनरावर्तनं करणीयम् इति वर्तते कश्चन तत्र समयः. परन्तु अत्र यत् करपात्रे यः करपात्रे आरम्भः वर्तते, तत्र एव ये ये विषयाः अस्माभिः प्राक् दृष्टाः ते इदानीम् अपि तत्र नाम केषुचित् परिच्छेदेषु तत्र सारभूतेन तत्र उपस्थापिताः. अतः एव पुनरावर्तनं विहाय आरभामहे इति मन्ये. तर्हि सीता भगिनि आरम्भं करोतु.
आं महोदय, भवादिगणः तुदादिगणे न गुणः, भवादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्धलोपान्तरम् अ एव अवशिष्यते इति अस्माभिः दृष्टम्. तयोः गणयोः तिङ्गन्तपदानां साम्यम् अपि अस्ति. यथा भवादौ भवति, तुदादौ लिखति, उभयत्र ति इति अस्मात् पूर्वम् अकारः. तर्हि किमर्थं गणद्वयम्? एतावता प्रायः सर्वे जानीयः यत् भवादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते. अस्मिन् पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः.
वदति किञ्चित् भगिनि, तत्र बहु नास्ति परन्तु किञ्चित्.
आं महोदय, प्रयत्नं करोमि. भवादिगणे अपि तुदादिगणे विकरणप्रत्ययः अवशिष्यते. सप् प्रत्यये लोपान्तर भवति, अवशिष्यते इति अस्माभिः जानीमः. तयोः गुण तिङ्गन्तं सामान्यमपि अस्ति. द्वयोः गणयोः तिङ्गन्तं सामान्य अस्ति. ति इति भवति, भवादिगणे भवति इति ति अस्ति, सुदादिगणे लिखति इति अस्ति. उभयत्र ति अस्ति, कस्मात् अवशिष्यते? चेत् गुण भवादिगणे गुणः भवति तुदादिगणे गुणः न भवति भवादिगणे भू भव इति रूप वदति तुदादिगणे लिखति लिख लिख लेखति इति न भवति सम्यक्
एवं भगिनि एवं भगिनि इदानीं तत्र विषयः कः प्रथमतः प्रथमे वाक्ये प्रथमस्मिन् वाक्ये उच्यते यत् तुदादिगणे भूवादिगणे यत् यः विकारणप्रत्ययः अस्ति तस्य दृश्यरूपम् अ एव अस्ति इदानीम् अस्माभिः दृष्टं शाप् इति अस्ति तत्र श इति एकः इत् वर्णः अस्ति पकारः अपि तौ उभौ तत्र लषक्वदच्छिते हलन्त्यम् इति अनयोः सूत्रयोः अपगच्छति इदानीं तदनन्तरम् इत्संज्ञा अपगमात् अनन्तरम् अपगमनात् अनन्तरं यः तत्र यत् अवशिष्यते तत् दृश्यरूपम् इति उच्यते इदानीं वस्तुतः न केवलं विकारणप्रत्ययेषु सर्वेषु प्रत्ययेषु ये तत्र अष्टाध्याय्यां विहिताः प्रत्ययाः तेषां सर्वेषां कश्चन औपदेशिकरूपमस्ति किञ्चन औपदेशिकं रूपमस्ति किञ्चन दृश्यरूपम् इदानीं तत्र शपः यत् दृश्यरूपं वर्तते तत् अ एव तथा एव तुदादिगणे इदानीं तत्र प्रत्ययः कः इति एतत् सर्वं तत्र अग्रे पश्यामः परन्तु तत्र इति तत्र चिनन्तरूपाणि परिशीलयामः इति चेत् तर्हि लिखति एकम् अस्ति भवति इति अन्यत् अस्ति तत्र यः तिङ् प्रत्ययः अस्ति नाम तिप् तस्य दृश्यरूपं ति वर्तते ततः प्राक् यः विकरणप्रत्ययः अस्ति सः उभयत्र अ एव इति अतः एव वदति तत्र आचार्यः तयोः द्वयोः रूपयोः साम्यं तत्र साम्यं नास्ति परन्तु तत्र सादृश्यं साम्यम् इव अस्ति इति तथा वक्तुं शक्नुमः परन्तु एकः भेदः अस्ति यथा उक्तं भवत्या तत्र तत्र भूवादिगणे अस्माभिः गुणः भवति लिखति इति अत्र गुणः नास्ति इति एवम् इदानीं किमर्थम् अत्र गुणः नास्ति इति अस्माकम् अध्यात्मः विषयः नमस्कारः तत्र कोऽपि आगतवान् मध्ये आगतवान् कोऽपि वा कृपया तत् नाम उच्यतम्
अरुणरामलु महोदय
भवतु तर्हि विजयालक्ष्मी भगिनी अग्रे पठति वा
दृष्टान्ते भूधातुः इगन्तः अस्ति शप् प्रत्यये परे इगन्तभूधातोः उकारस्य गुणादेशो भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण बुध् धातोः उपधायां लघु इक् वर्णः अतः शप् प्रत्यये परे तस्य बुध् धातोः उकारस्य गुणादेशो भवति पुगन्तलघुपदस्य च इति सूत्रेण आहत्य भ्वादिगणे इगन्तधातूनाम् इक् वर्णस्य गुणः उपधायां ह्रस्व इक् वर्णस्य गुणः च महोदय अहं तु एतत् सर्वं किञ्चित् मम स्तरस्य अग्रे अस्ति भवान् एव कृपया एक्स्प्लेन् करोतु
भवतु परन्तु इदानीं तत्र सर्वं परिच्छेदं पतति एव
पूर्वं पूर्णं
अधुना
अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न इत्युक्तौ इगन्तधातूनाम् इक् वर्णस्य गुणः न तथा हि उपधायां ह्रस्व इक् वर्णस्य गुणः न यद्यपि सुदादिगणे शविकरणप्रत्ययः षित् अस्ति भ्वादिगणस्य शप् इव तथापि तुदादौ गुणः न भवति.
इदानीं किं कुर्मः? अहमेव वदामि वा अथवा भगिनी प्रयत्नं?
हा, भवान् एव वदतु. किमर्थं मम कक्षा भवति सोमवासरे, तत्र वयम् इत् सम्या प्रकरणं भवतः एव कृतवन्तः. एतत् सर्वं किञ्चित्
सम्यक् 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 भगिनि. तर्हि दीपा भगिनी अस्ति वा? दीपा
महोदय. आम् अस्मि महोदय, क्षम्यता, म्यूट् मध्ये आसम्.
तत्र इदानीं भवती सहायं करोति वा?
अस्तु, अत्र किमस्ति, यत् पूर्वं पठितवन्तः भ्वादिगणे कथं गुणः भवति इति, तस्मिन् विषये एव पुनः किञ्चित् पुनरावर्तनमस्ति. वस्तुतः भ्वादिगणे विषयद्वयमस्ति. एकः अस्ति इगन्तधातवः इति, अन्ते यत् इक् वर्णः अस्ति तस्य गुणः भवति यथा भूधातुः अस्ति. भूधातोः अन्ते ऊकारः अस्ति.
इक् वर्णः नाम किम्?
इक् प्रत्याहारः इत्युक्ते अ इ उ
नाम इ उ
न इ उ
क्षम्यता इ उ रुल् रु
इ उ
अस्तु. अत्र सूत्रमस्ति सार्वधातुक अर्धधातुकयोः अङ्गस्य इकः गुणः इति. अनन्तरं बुध् धातुः अस्ति. बुध् धातौ उपधावर्णः लघु इक् अस्ति. लघु उपधावर्ण वर्णस्य अपि गुणः भवति वादिगणे. तत्र सूत्रमस्ति पुगन्तलघु उपधस्य इति. तर्हि यदि अन्तिम इक् वर्णः अस्ति अथवा उपधा लघु इक् वर्णः अस्ति चेत् भ्वादिगणे गुणः भवति. इदानीं तुदादिगणे किम् अस्ति, एतत् विषयद्वयमपि भविष्यति, परन्तु गुणः तु न भवति. इत्युक्ते इगन्तधातूनाम् इक् वर्णस्य गुणः न भवति, तथा एव लघु उपधायाः अपि गुणः न सम्भवति. किमर्थम् इति अग्रे पश्यामः.
तर्हि भगिनि तत्र अन्तिमं वाक्यं कृपया पुनरेकवारं पठतु. यद्यापि
यद्यपि तुदादिगणे शविकरणप्रत्ययः षित् अस्ति भादिगणस्य शप् इव, तथापि तुदादौ गुणः न भवति.
तत्र अस्य वाक्यस्य आशयः कः
इत्युक्ते विकरणद्वय प्रत्ययद्वयमपि षित् प्रत्ययाः प्रत्ययौ एव, यथा शप् प्रत्ययः अपि षित् प्रत्ययः अस्ति, श प्रत्ययः अपि षित् प्रत्ययः अस्ति. किमर्थं चेत् तत्र द्वयोः शकारस्य इत् संज्ञा लशक्वतद्धिते इति सूत्रेण, अनन्तरं तस्य लोपः इति सूत्रेण शकारस्य लोपः भवति. तर्हि अकारः एव शिष्यते. यद्यपि तत्र दृश्यरूपम् अकारः एव समानः इव दृश्यते, तथापि गुणः न भवति इति.
इदानीं तु अस्मिन् अस्मिन् तत्र विषये शितः कः प्रसङ्गः? किमर्थं तथा वदति आचार्यः? तत्र शित् अस्ति, किम् अनेन?
अत्र सूत्रमस्ति तिंशित् सार्वधातुकम् इति, पूर्वं दृष्टवन्तः. यदि सार्वधातुकसंज्ञा अस्ति चेत् तत्र अङ्गस्य एकः गुणः भवितव्यम् इति पूर्वं पठितवन्तः.
एवं समीचीनम्, एवं सुन्दरम्, एवं तथा एव. इदानीं एवम् एवं भगिनि, धन्यवादः. इदानीं तत्र शप् यः प्रत्ययः अस्ति, तत्र शकारः इति वर्तते, अत एव तिंशित् सर्वधातुकम् इत्यनेन सूत्रेण शप् यः प्रत्ययः स सः सर्वधातुकम् इति संज्ञां प्राप्नोति अथवा संज्ञा प्राप्नोति. इदानीं तु आचार्यः वदति भोः भवतु नाम तत्र तुदादिगणे यः विकरणप्रत्ययः वर्तते सः श एव. तत्र श श योगः आ नाम श. तत्र षित् सः षित् अपि अस्ति, तत्र षकारः अपि इत् प्रत्ययः अस्ति. इदानीम् अनेन एव तत्र प्राकृतेन मार्गेण सः शः प्रत्ययः सः अपि सार्वधातुक प्रत्ययः भवितुम् अर्हति. सार्वधातुकत्वे सति तत्र सार्वधातुक अर्धधातुकयोः इग् अन्तस्य धातोः तत्र अन्तिमवर्णस्य गुणः भवितव्यं, गुणेन भवितव्यम्. अपि च लागु उपधाय उपधाया अपि तत्र गुणेन भवितव्यम् इति सर्वं तत्रापि भवितुम् अर्हति इति तत्र इति भाति. परन्तु न भवति इति कथं तत् अग्रे पश्यामः. धन्यवादः. तत्र तर्हि अरुण अरुण महोदय वा भगिनी वा
महोदय क्षम्यताम्. वादिगणे पकारस्य कारणात् अवरोधं न सम्भवति खलु?
एवम् 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 एवं सः एव अध्यात्मः विषयः तावदेव. एवं तदेव भगिनि
धन्यवादः.
आं महोदय.
तर्हि अरुण
अरुण वदामि अधुना तदेव पठामि.
अधुना एव भुवादिगणस्य धात्वाङ्गे इति इतः
भवादिगणे करणप्रत्ययस्य
भुवादिगणे धात्वाङ्गे गुणः. इदानीं पिडिएफ् पिडिएफ् मध्ये तृतीयः परिच्छेदः स्यात् परन्तु तत्र आन्लैन्
ओके भवादिगणस्य धात्वाङ्गे गुणः यत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते. इगन्तधातुः भवतु लघु उपधाधातुः भवतु उभयत्र गुणस्य निमित्तं शाप् इति विकरणप्रत्ययः.
अग्रिमं परिच्छेदम्
शप् विकरणप्रत्यये शकारस्य इत्संज्ञा लोपः च इति कारणतः शप् षित् षित् यस्य सकरः इत् सः षित् किंषित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकं शप् सार्वधातुकसंज्ञकप्रत्ययः इति कारणात् सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तधातोः इकः गुणः पुगन्तलघु उपधस्य च इति सूत्रेण धातोः उपधायाम् अश्व इकः गुणः च इति दृष्टवन्तः. नाम गुणकार्ये शपः प्रेरणादयिनी शक्तिः अस्ति इति ज्ञातवन्तः. भवादिगणे शप्रत्यय गणविकरणप्रत्यय आगच्छति. तत् धातु परतः भवति. तद् शप् इति शकार इत्संज्ञा ततः लोपः इत्संज्ञा लोपः भवतु शप् इति षित् इति सूत्रकारेन वदतः वदन् तिङ् षित् सार्वधातुक इति सूत्रेण शप् सार्वधातुकं तदेव सार्वधातुक अर्धधातुकः इति सूत्रेण इगन्तधातोः इकः गुणः भवति. पुगन्तलघुपदस्य सूत्रेण उपधायाः इक् वर्णस्य अश्व इक् वर्णस्य गुणः तु भवति. वयं दृष्टवन्तः नामगुणकारे सपः प्रेरणादयिनी शक्तिः अस्ति इति ज्ञातवन्तः.
प्रेरणादायिनी शक्तिः किम् अवगच्छति वा भगिनि? प्रेरणा नाम किम् अथवा
प्रेरणं
नपुंसकलिङ्गः अस्ति, तत्र स्त्रीलिङ्गे अस्ति. प्रेरणा प्रयोजनं प्रेरणं किं निमित्तम् अपि सामान्यार्थकः
एवमेवं.
प्रेरणं दायिनी नाम ददाति सा दातुं शीलम् अस्य, तत्र सा तत्र किं भवति शपः शक्तिः. इदानीम् ईदृशी शप् प्रत्ययस्य शप्तिकर्मप्रत्ययस्य ईदृशी शक्तिः अस्ति यया सः प्रत्ययः गुणं प्रेरयति अथवा गुणप्रेरणं ददाति, गुणप्रेरणं करोति, गुणनिमित्ती भवति, गुणस्य निमित्तं भवति इति तादृश तत्र आगच्छति
वा?
तावदेव. इदानीं तथा एव इदानीं ज्ञायते अस्माभिः. इदानीं शपः शप् गुणस्य निमित्तं भवति भूवादिगणे इति तावदेव ज्ञायते. तत्र मध्ये कोऽपि आगतवान् इति मन्ये?
अहमेव
भवतु नाम. तर्हि धन्यवादः. तर्हि शीता भगिनि पठति.
आं महोदय. अधुना तुदादिगणे विकरणप्रत्ययः शः स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्संज्ञा लोपः च इति कारणतः शशित् यस्य शकरः इत् सहसित् तिङ्गषित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञकः. तर्हि तुदारिगणे अपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातो इकः गुणः भवेत्. उगन्तलघु उपदस्य च इति सूत्रेण धातोः उपदायां ह्रस्व इकः गुणः च भवेत्. इदं सर्वं सत्यं सत्यपि गुणः न भवति. तर्हि कः भेदः श प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत् किमर्थं भवादिगणे यत्र गुणः भवति तत्र तुल्यादिगणे न भवति? तुदादिगणे विकरणप्रत्ययः स अस्ति एवं सकारस्य लसत्कुद् तद्धिते सूत्रस्य इत्संज्ञा भवति. तर्हि लोपः भवति. तर्हि सम्यक् न
लषक् वा तत् इत्यनेन शकारः इत्संज्ञा भवति इति तावदेव. तदनन्तरम् इदानीं शकारः इत्संज्ञा प्राप्नोति अतः लोपः भवति. अतः श प्रत्ययः कीदृशः अथवा श प्रत्ययः किं संज्ञकः?
सार्वधातु.
एवम् इदानीं यस्मात् यस्मात् शकारः लशक्वादिति इत्यनेन इत्संज्ञां प्राप्नोति तस्मात् एव शप्रत्ययः षित् संज्ञकः भवति तदनन्तरं किञ्चित् सर्व किञ्चित् सर्वदातकम् इत्यनेन किम्
किञ्चित् एकनिमिषं किञ्चित् सार्वधातुकेन सूत्रेण सकारः सकारश्चित् सम्यक् भवति तर्हि तुदादिगणे अपि
तत्र क्रमशः गच्छामः. इदानीं प्रथमतः शयोगः आ, इदानीं द्वौ वर्णौ अयं कश्चन विकारणप्रत्ययः अस्ति, यथा शप् श अप् इति कश्चन विकारणप्रत्ययः भूवादिगणे, तथा एव तुदादिभ्यो शः इत्यनेन सूत्रेण अग्रे पश्यामः. अनेन सूत्रेण केनापि सूत्रेण श इति कश्चन विकारणप्रत्ययः भवति तुदादिगणे. इदानीं श इति अस्मिन् प्रत्यये कः वर्णः इत् भवति भवती एव वदतु. केन सूत्रेण यस्मिन् प्रत्यये शकारः इत् अस्ति सः प्रत्ययः केन शब्देन तत्र व्यवह्रियते तत्र नाम अस्मिन् शास्त्रे एवं, परन्तु इतः प्राक् एकं पदमस्ति नाम षित् षित् इति वस्तुतः कश्चन समासः अस्ति. कीदृशः समासः जानाति वा भगिनि? तादृशः समासः कथाम् उच्यते? बहुव्रीहि यस्य सः बहुव्रीहिः कश्चन जनः, तथा एव श इत् यस्य सः षित् इति तत्र बहुव्रीहि समीचीनं. तर्हि इदानीं षित् इदानीं श प्रत्ययः षित् अस्ति. इदानीं षित्वे सिद्धे तस्यापि सार्वधातुकत्वं सिद्ध्यति यतोहि तिंषित् सार्वधातुकम् इति सूत्रं वदति. आगच्छति वा शीता भगिनि?
सम्यक् न आगच्छामि.
इदानीं षित् नाम किम् अवगच्छति वा भगिनि?
आम् आम्.
किं तर्हि सा शब्दाः षित् नाम किम्?
षित् सार्वधातुकं,
परन्तु भवतु तत्तु समीचीनं, परन्तु इतः प्राक् षित् इदानीम् अस्मिन् लोके षित् इति किम्? इदानीं षित् तिंषित् सार्वधातुकम् इति संज्ञासूत्रम्. अस्मिन् सूत्रे सार्वधातुकम् इति काचन संज्ञा विधीयते, परन्तु संज्ञीं नाम यत् लोके वा अथवा यत् वस्तुतः लोके इति न यत् व्याकरणलोके किञ्चन वस्तु अस्ति, किञ्चन वैयाकरणिकं वस्तु अस्ति, तस्य पाणिनिमहर्षिभिः तत्र सार्वधातुकम् इति संज्ञा विधीयते. संज्ञी तु कः? वस्तुतः संज्ञिनौ तत्र द्वौ संज्ञिनौ स्तः, तिङ् प्रत्ययाः अथवा तिङ् प्रत्ययाः अपि च षित् प्रत्ययाः, एवं वा? तिङ् प्रत्ययाः के?
तिङ् प्रत्ययः दत्तवर्थ
तिङ् प्रत्ययः अतः ति ति ति
तिङ् प्रत्ययः इत्युक्ते आत्मनेपदे परस्मैपदे
एवम् तावदेव तावदेव ये आत्मनेपदं परस्मैपदं आत्मन् तथा एव परन्तु षित् प्रत्ययः के सीता भगिनि षित् प्रत्ययः के
येषां प्रत्ययानां षकारः इति संज्ञा अस्ति ते षित् प्रत्ययाः यथा शप् प्रत्यये षकारस्य इति संज्ञा अस्ति खलु षप्रत्यये अपि षकारसः षकारः एव इत् अस्ति तर्हि द्वौ अपि षित् संज्ञकाः सम्यकौ
क्षम्यतां सकार आसीत्
वस्तुतः लशक् वदति के हलन्त्यं तत्र अनेकानि सूत्राणि सन्ति तत्र एतैः किं क्रियते तत्र इत् संज्ञा विधीयते तावत् इत् इति कश्चन काचन संज्ञा अस्ति नाम यत्र शकारः यत्र कुत्रापि प्रत्ययेषु दृश्यते व्याकरणलोके सः सर्वदा लशक्वतद्धिते इति अनेन अदौ यदि वर्तते लशक्वतद्धिता इति अतचिते इति लशक्वतद्धिते इति अनेन इत् संज्ञां प्राप्नोति तावदेव इदानीम् इत् संज्ञां प्राप्य तत्र अपगच्छति केनापि सूत्रेण अस्य नास्ति प्रसङ्गः इदानीं भवतु इदानीं शप् प्रत्ययः शित् अतः न अशित् वा किं चिन्तयति
षित् एव
शप् षित्
श प्रत्ययः षित् अशित् वा
तदपि
षित् अस्ति चेत् तर्हि सार्वधातुकं वा अर्धधातुकं वा भवति सार्वधातुकं सार्वधातुकम् अस्ति चेत् तर्हि सार्वधातुक अर्धधातुकयोः इति अनेन किं स्यात्
तस्य गुणः
भवति
इकः कस्य इकः
इगन्धदातु इकः
एवम् अन्ते विद्यमानस्य इकः एवं इत्यनेन किं भवति
उपधाः एकवर्णः गुणः भवति सार्वधातुकाध्यात्मकप्रत्ययपदी
अस्ति चेत् सीता भगिनि
कृपया पुनः वदतु
प्रश्नं वा उत्तरं वा
प्रश्नं
तत्र इदानीं प्रत्ययः षित् अस्ति चेत् तर्हि पुगान्तलागुपदस्य च इति अनेन सूत्रेण किं कार्यं भवति एवं समीचीनं कस्य इकः
उपधायिक लघु उपदायि
एवं समीचीनं भगिनि एवं तावत् एव इदानीं तत् सर्वम् एवम् अस्माभिः अनेकवारं दृष्टम् एवमेवं समीचीनं भगिनि तथा एव इदानीं तत्र परन्तु शाप्रत्यये इदानीं तत्र शाप्रत्यये किञ्चित् अस्ति येन एतत् सर्वं न भवति इति तावत् अस्माभिः इदानीम् अनुमीयते किम् एतत् इति अग्रे पश्यामः तर्हि धन्यवादः भगिनि विजयलक्ष्मी
धन्यवादः महोदय अहं सर्ववर्गे न आगच्छामि
तत्र मास्तु कोऽपि कापि चिन्ता मास्तु अत्र तावेव अस्माकम् इदानीं प्रयोजनमस्ति
यत् अस्मिन् वर्ग अहं बहु दूरे भवति अहम् इत्येतत् न आगच्छामि
भवतु परन्तु इदानीं प्रयत्नं करोतु
महोदय
किमपि क्लिष्टं नास्ति
आमां महोदय धन्यवादः
तर्हि विजयलक्ष्मी
अत्र केचन प्रश्नाः शपि शप् प्रत्यये पकारस्य किं कार्यं पकारः नास्ति चेत् कः प्रभावः तुदादिगणे विकरणप्रत्ययः श एव शप् न नाम पकारः नास्ति तर्हि पकारस्य अभावे किं भवति अस्माकम् अध्ययनस्य आरम्भे एवम् उक्तम् आसीत् विकरणप्रत्यये इत् संज्ञकशकारस्य कार्यं गुणस्य कृते प्रेरयति धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति विकरणप्रत्यये इत् संज्ञकपकारस्य कार्यं तस्य पकारस्य अभावे गुणस्य अवरोधः भवति इत् सम्यकः शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति अत्र पूर्वं यत् पठितवन्तः तदेव लिखितं यत् द्वादिगणे अनन्तरं तुदादिगणे द्वयोः गणे वस्तुतः तिङन्तपदं दृष्ट्वा वयं न जानीमः यत् कुत्र किं का वा किं तिङन्तपदं कुत्र गच्छति कस्य गणे गच्छति इति दृष्ट्वा वक्तुं न शक्नुमः परन्तु भेदः यत् अस्ति तद् वादिगणे गुणः भवति परन्तु तुदादिगणे गुणः न भवति तत्कारणमेव विकरणप्रत्ययः अत्र शप् अस्ति अत्र श अस्ति तत् पकारस्य अभावात् अत्र गुणः न भवति तद् वयम् इदानीं दृष्ट्वा किं भवति महोदय दृष्ट्वामहे
तथा द्रक्ष्यामहे अस्माभिः अथवा अस्माभिः द्रक्ष्यते अथवा वयं
द्रक्ष्यामः
द्रक्ष्यामः इति मन्ये
वयं द्रक्ष्यामः
सुन्दरं द्रक्ष्यामः तर्हि तत्र सुरेश अनन्तनारायण तत्र विजयलक्ष्मी भगिनी तथा भवत्या एव ईमेल् अस्ति वा
आम् आम्
तथा भवतु तत्र मीना भगिनी अस्ति वा मीना भगिनी
अत्र इदानीमेव अहम् आगतवती महोदय
तर्हि भवती किम् अग्रे
कुत्र पठति छात्राः अहं न जानामि
किं वदामि तत्र पि डि एफ् मध्ये भगिनी तत्र कुत्र आन्लैन् मध्ये पठति वा अथवा पि डि एफ् तः
कुत्र पठति छात्राः अहं न जानामि अहम् अध्यापकः एव अहं
तर्हि किं शृणोति वा अथवा अस्माभिः तत्र अपि किं किञ्चित्
अहं पाठनं कर्तुं न पाठयामि इदानीं श्रोतुमेव अहम् आगतवती
तथा एव परन्तु भवतु नाम तत्र यथा इच्छति भगिनि नेच्छति इति चेत् तर्हि का तत्र दीपा भगिनी अस्ति इति चेत् अग्रे तत्र प्रयत्नं करोतु तत्र नास्ति व्यवस्था क्लिष्टं नास्ति किञ्चित् दीपा भगिनी
आं महोदय पठामि वा इत्संज्ञक शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? भाविगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. अतः सारल्यार्थं भाविगणे पकारसम्बन्धसूत्रसहितचर्चा न जाता, परन्तु तुदादिगणे पकारस्य अभावे गुणविरोधः, स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. लिख् धातोः उदाहरणम् अत्र अवलोकयाम. लिख् लट् लकारविवक्षायां प्रथमपुरुष एकवचने विकरणप्रत्ययस्य योजने लिख् योगः ष योगः ति. लशक्वतद्दिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन शकारलोपः. तर्हि लिख् योगः अ योगः ति अवशिष्यते. षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण षप्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति. पुगन्तलघुपदस्य च इत्यनेन सूत्रेण लिख् धातोः उपधायां ह्रस्व इकारस्य गुणप्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्. किन्तु शप् विकरणप्रत्ययः न केवलं षित् अपि तु अपित्. अपित् यस्मिन् इत् संज्ञकः पकारः नास्ति सः अपित् इति उच्यते. विकरणप्रत्ययः ष षित् अस्ति इति स्मरतु. नाम यद्यपि शकारस्य लोपः जातः तथापि शकारस्य प्रभावः अस्ति एव, यतः लोपः इत्युक्ते अदृश्यः न तु अपगतः. परन्तु तुदादिगणे विकरणप्रत्ययस्य पकारः नासीत् एव, पकारलोपः इति न, पकारः नास्ति एव, अतः षविकरणप्रत्ययः अपित् इति उच्यते. अत्र लिख् इति उदाहरणं दत्तमस्ति, तत् दृष्ट्वा वदामि. लिट् धातोः लट्लकारविवक्षायां प्रथमपुरुष एकवचने तिङन्तप्रत्ययेषु ति इति स्वीकुर्मः, तर्हि विकरणप्रत्ययः अस्ति ष इति, तर्हि लिख् योगः ष योगः ति भवति. अत्र लशक्वदद्दिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, अनन्तरं तस्य लोपः अनेन सूत्रेण शकारलोपः भवति, तर्हि लिख् योगः अयोगः ति अवशिष्यते. इदानीम् अत्र शकारस्य क्षम्यतां, शप्रत्ययस्य शकारः इत्संज्ञा, तर्हि शविकरणप्रत्ययः षित् इति वक्तुं शक्यते तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण. तर्हि यदि षविकरणप्रत्ययः अपि तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञां प्राप्नोति, तर्हि पुगन्तलघुपदस्य इत्यनेन सूत्रेण वस्तुतः यत् लघु इकारः अस्ति लिख् धातौ, तस्य गुणः भवितव्यं, तर्हि लेख् इति भवितव्यं. परन्तु वयं जानीमः तुदादिगणे लिख् धातोः लिखति एव रूपं भवति. तत् किमर्थम् इत्युक्ते अत्र षविकरणप्रत्ययः यदस्ति तत् केवलं षित् प्रत्ययः एव न, परन्तु तस्य अन्यनाम भवति अपित् इति. अपित् इत्युक्ते यस्य प्रत्ययस्य पकारः इति संज्ञा नास्ति सः अपित् प्रत्ययः इति उच्यते. अत्र पकारस्य लोपः इति न, परन्तु पकारः नास्ति एव प्रत्यये.
समीचीनं वा महोदय? एवं समीचीनं, अत्यन्तं समीचीनं. तत्र
अत्र उपधा इति शब्दः तु स्त्रीलिङ्गे, परन्तु सूत्रे उपधस्य इति अस्ति, किमर्थम्?
पुगान्तलघुपदस्य इकः इति मन्ये तत्र इकः,
तत्र लघुपदमिति समासः अस्ति खलु, इतर समाहारद्वन्द्वसमासः, द्वन्द्वसमासः सर्वत्र नपुंसकलिङ्गे एव भवति.
धन्यवादः, मया तत्र अन्यः कश्चन मार्गः स्वीकृतः. एवमेवमेवं तत्र समाहारसमासः अस्ति.
धन्यवादः,
धन्यवादः. एवं एवं तर्हि अग्रे गच्छामः. पद्मा भगिनी, पद्मा भगिनी अस्ति वा? नास्ति इति भाति, परन्तु प्रत्युत्तरं न ददाति. तर्हि अरुणा भगिनि, अरुणा भगिनी अस्ति वा
महोदय? आं महोदय, मम गृहे बन्धूनि बान्धवाः सन्ति, अतः एव अन्याः पठतु, अहमेव शृणोमि.
भवतु तर्हि मीना भगिनी पठितुम् इच्छति इच्छति वा? तर्हि तत्र तर्हि शीताल भगिनी
आं महोदय.
तर्हि इदानीं नूतनं सूत्रं किञ्चन आगच्छति.
सार्वधातुकम् अपित् अपित् नित् अनुवृत्तिसहितं सूत्र सार्वधातुकम् अपित् नित् अर्थः एवम् अपित् सार्वधातुकं नित् इव अस्ति. अयम् अतिदेशः इति उच्यते. अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः तथा भवतु इति विधानं. यथा सिंहो माणवकः बालकः सिंहः नास्ति, परन्तु वीरो माणवकः सिंह इव. अतः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम्. यस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति सः
प्रत्ययम् तदेव कृपया.
सार्वधातुकमपि सूत्र अनुवृत्तिसहितं सूत्र सार्वधातुकम् अपि अनुवृत्तिनीत् नीतागच्छति. सार्वधातुकम् अपि नीत् इति अनुवृत्तेन अनुवृत्तिसहितं सूत्रं भवति. सः एवम् अपि सार्वधातुकं नीत् एव अस्ति. अपि सार्वधातुकम् अपि नीत् नीत् समान वर्तते इति कारणेन इति अतिदेशः इति उच्यते. अतिदेश नाम यस्य स्वभावः तथा नास्ति सः. अहम् अतिदेशः न अवगच्छामि भवान्.
भवतु नाम धन्यवादः. विजयालक्ष्मी भगिनी तर्हि तत्र सहायं करोति अतिदेशम् अतिदेशम् उद्दिश्य वदति चेत्
सूत्राणां षट् भेदः सन्ति. तत्र अतिदेशः इति एकः भेदः. अतिदेशसूत्रेषु यत् क्वालिटि तत् कथं
गुणः वा धर्मः
गुणः धर्मः तद् अन्यधर्मस्य गुणः तद् स्वीकृत्य अतिदेशः इति उच्यते.
यथा
माणवकः सिंहः नास्ति, परन्तु सिंहस्य गुणः यदि भवति तर्हि सिंहः इव वदामः. तद्वत् अतिदेशसूत्राणां अत्र सार्वधातुकम् अपित् इति अस्ति, परन्तु अपित् इति संज्ञायाः नित् गुणः भवति, तदर्थं सार्वधातुकम् अपित् नित् इति अत्र सूचितमस्ति.
नित् इव एवं तत्र सिंहो मानवः तत्र अतिदेशः भवतु नाम परन्तु तत्र अतिदेशः इति परन्तु भवतु यत् उक्तं भवत्या तत् तत् समीचीनमेव इदानीम् अतिदेशः तत्र व्याकरणलोके अस्य अस्य तत्र वस्तुतः इति अन्यतमः सूत्रप्रभेदः वर्तते तदपि अग्रे अस्मिन् करपत्रे एव भविष्यति परन्तु इदानीं तत् अदृष्ट्वा वदामः इति चेत् तत्र यत्र कस्याचित् इदानीं तत्र सार्वधातुकम् अपि कश्चन प्रत्ययः अस्ति इदानीं वदामः भोः अयं प्रत्ययः ङित् नाम अस्या प्रत्ययस्य ङ इति ङकारः इति भवति तत्र वास्तवतः तत्र ङकारः नास्ति एव परन्तु ङित् इति वदामः अत एव अतिदेशः भवति इदानीं वस्तुतः औपदेशिकं तत्र पश्यामः इति चेत् तादृश इदानीं यत् उक्तं भवति अत्र यदि कश्चन धर्मः नाम ङित्वम् इति इदानीं गुण इति इदानीं धर्मं स्वीकृत्य इदानीं ङित्वम् अपि सर्वधातुके वस्तुतः नास्ति परन्तु अनेन सूत्रेण अयं धर्मः अयं गुणः तत्र अतिदिश्यते
अतिदिश्यते
अतिदिश्यते अथवा अध्यरोप्यते तत्र उच्यते परन्तु अध्यरोपः भवतु नाम अध्यरोप्यते स्पष्टं वा सीता भगिनि
किञ्चित् स्पष्टं
तर्हि उदाहरणं पश्यामः सिंहो मानवकः अस्यार्थः कः इदानीं मानवकः नाम बालः कश्चन बालकः अस्ति अयं बालकः वीरः अयं बालकः वीरः अस्ति अत एव उच्यते भोः अयं बालकः न बालकः सः सिंहः एव इदानीं वदामः तथा वदामः इति चेत् अस्य वाक्यस्य अर्थः कः अयं मानवकः सिंहः इति तथा वास्तविकः अवास्तविक तथा नास्ति सः तु न सिंहः सः पुरुषः एव परन्तु सिंहः इति वदामः चेत् तर्हि सिंहे ये गुणाः केचन सन्ति तथा वैरं धैर्यं वा वीरत्वं यत्किमपि अस्ति तथा युधे धैर्यं यत् सर्वमस्ति ये इमे सर्वे गुणाः बालके अस्माभिः इदानीं कल्प्यन्ते इदानीम् अस्माकम् आशयः कः अयं बालकः सिंहः इव इति वस्तुतः अयम् एव अर्थः वर्तते परन्तु यदा तथा एव आगच्छति
सिंहः नास्ति परन्तु सिंहः गुणाः सन्ति
वस्तुतः इदानीम् अर्थं तत्र अनेकं वस्तुतः अस्मिन् उदाहरणे अनेकं वक्तव्यमस्ति तत्र लक्षण कापि स्वीक्रियते तत्र वस्तुतः अनेकेषु शास्त्रेषु अस्ति महान् विचारः परन्तु अत्र यत् तावदेव तत्र तत्र तावदेव अभिप्रेतम् आचार्यैः इदानीं सिंहः मानवकः इति वाक्ये अर्थः कः मानवकः सिंहः एव इति न परन्तु मानवकः सिंहः इव इति तावत् अग्निर्माणः तादृशानि उदाहरणानि सन्ति तर्हि विजयलक्ष्मी भगिनि भवती अग्रे
यस्मिन् प्रत्यये नकारस्य इत् संज्ञा अस्ति सः प्रत्ययः नित् ङित् यस्य नकारः इत् सः ङित् ङित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति तत् किं कार्यम् इति सम्प्रति उच्यते अत्र तावदेव अवगच्छतु सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् ङित् नास्ति तथापि ङित् इति ङित् इव भवति अतः यथा ङ्यत् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोतु तच्च कार्यं किम् इति इदानीं पश्यामः. पठानि वा अग्रे
अथवा एनं परिच्छेदम् उक्त्वा अग्रे पततु.
आम्, अत्र अपित् इति प्रत्ययः नित् नास्ति, परन्तु नित् इति प्रत्ययस्य किञ्चन धर्मः अपित् प्रत्यये अपि भवति. तत् कारणं नित् इव इति वदामः. यत् कार्यं नित् करोति तत् कार्यम् अपित् अपि अत्र करोति, तत् कारणमेव अपित् नित् इव इति वदामः. सम्यक् वा?
तर्हि अग्रे
किङ्क्ति च
किङ्क्ति च
किङ्क्ति च
प्रथमं ककारं विहाय किङ्क्ति च
किङ्क्ति च किङ्क्ति च गुणबाधकं सूत्रं किङ्क्ति च अनुवृत्तिसहितं सूत्रं किङ्क्ति च इकः गुणवृद्धि न. यः प्रत्ययः ङित् अथवा ङित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति. गुणस्य वृद्धेः च बाधकं सूत्रम् इदम्. सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ. अनुवृत्तिसहितसूत्रं किङ्क्ति किङ्क्ति सप्तम्यन्तं किङ्क्ति सप्तम्यन्तं हलन्तं पदं, तस्य अर्थम् एवम्. ग च क च ङ च ते इत् संज्ञकः वर्णाः यस्य सः प्रत्ययः किङ्क्ति तस्मिन् इति. सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म, तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. किङ्क्ति च इति सूत्रेण किङ्क्ति इति सप्तम्यन्त हलन्तपदम्, अस्य अर्थः भवति गकारः ककारः ङकारः एते त्रीणि वर्णाः त्रयः वर्णाः किङ्क्ति इति तस्य सप्तम्यन्तं किङ्क्ति इति भवति. अनुवृत्तिसहितं सूत्रं भवति किङ्क्ति च इकः गुणवृद्धि न. अत्र वयं वृद्धि इति न पश्यामः, तद् अत्र केवलं गुणः किमर्थं न भवति इति पश्यामः, तदेव.
तर्हि इदानीं किं सम्भवति, किं किं फलितं भवति, फलितार्थः कः?
किङ्क्ति च इति सूत्रस्य कारणेन गुणस्य बाधः भवति, तत् कथमिति वयम् इदानीं द्रष्टव्यं.
कस्मिन् तत्र गुणस्य बाधः कदा भवति?
अनुवृत्तिसहितसूत्रं भवति किङ्क्ति च इकः गुणवृद्धिः न.
गुणवृद्धिः न कदा?
ङिति च सप्तम्यमन्तम् अस्ति, पूर्वकार्यं न भवति इति.
पूर्वकार्यम्, आम् आम्, किङ्क्ति यदा परे भवति तस्य पूर्वम् इकस्य गुणवृद्धिः न भवति. इकः, सारि, इकः गुणवृद्धिः न भवति इति. इकस्थाने गुणवृद्धिः यदि परे किं ककारः गकारः एवं चकारः एवं ङकारः भवति चेत् गुणवृद्धि कार्यं न भवति.
तत्रापि तादृश अर्थः ङित् इति तत्र गङ्ग तेषां किं
किं ककारस्य गकारः भवति तद् चर्त्वं वा
चर्त्वं तदेव
चर्त्वं
गकङ्ग इदानीं तेषां कश्चन किमपि तत्र कोऽपि द्वन्द्वसमासः समाहारद्वन्द्वः समाहारद्वन्द्वः तत्र नास्ति विचारः. इदानीं समासः तत्र द्वन्द्वसमासः अपि च तत्र विचारः नास्ति अपि च तत्र नास्ति भेदः. यः कोऽपि द्वन्द्वसमासः यं किं कामपि द्वन्द्वसमासं कृत्वा कृङ् इति द्वन्द्वसमासः यदा भवति कृङ् इत् यस्य सः यथा षित् इति दृष्टम् अस्माभिः प्राक् अतः एव ङित् इति अस्य अयम् एव अर्थः भवति. नाम यः प्रत्ययः यस्मिन् प्रत्यये गकारः ककारः ङकारः वा इत् संज्ञां प्राप्नोति अथवा इङ् इत् अस्ति चेत् सः प्रत्ययः ङित् भवति कित् ङित् अथवा कित् गित् कित् ङित् प्रत्ययः भवति. इदानीम् एतादृशे प्रत्यये परे गुणवृद्धिः न भवतः. एवं वा?
आम् आम्.
तर्हि दीपावली
आम् आम् सार्वधातुकमपि इत्यनेन
सूत्रेण ककारं भवति एकवारं भवति नीति च सूत्रे ककार एकवारं भवति वा द्विवारं भवति कदा पुस्तके द्विवारं लिखति कदा पुस्तके एकवारं लिखति
तत्र भगिनि वस्तुतः तत्र मतिभेदः वर्तते. इदानीं तत्र किं पौराणिकेषु व्याख्यानेषु पश्यामः इति चेत् तर्हि तत्र सामान्यतः एक एव ककारः वर्तते परन्तु सिद्धान्तकौमुद्यां ककारद्वयाम् एव वर्तते. तत्र तत्र अग्रे अयं विषयः विचार्यते इति मन्ये. तत्र कश्चन मतभेदः वर्तते केषुचित् तत्र घ्नु कश्चन प्रत्ययः अस्ति तत्र सिद्धान्तकौमुदी कारस्य मते तत्र किञ्चन कार्यम् अस्ति यस्यार्थे अर्थात् गकारस्य उपस्थितिः आवश्यकी भवति. परन्तु तत्र काशिककारमतानुसारेण तत्र गकारः नास्ति ककारः एक एव.
सर्वे
म्यूट् सीता भगिनी तथा भवत्याः गृहे
किमपि न श्रूयते म्यूट् करोतु सर्वे प्लीज़.
इदानीं मया किम् उक्तं तत्र यः इदानीं यः प्रश्नः तत्र पृष्टः सः समीचीनः एव तत्र कश्चन मतभेदः वर्तते वस्तुतः. इदानीं तत्र आधुनिकेषु ग्रन्थेषु पश्यामः इति चेत् तत्र सामान्यतः ककारद्वयं दृश्यते. सः तद् मतं सिद्धान्तकौमुदी कारैः नाम भट्टोजिदीक्षितैः तत्र उपस्थापितं वर्तते. तस्य वस्तुतः अयं विषयः कदाचित् अग्रे अस्मिन् वर्गे एव आगमिष्यति. परन्तु इदानीं तत्र सारभूत तत्र सारांशं वदामि इति चेत् तर्हि तत्र कश्चन प्रत्ययः अस्ति घ्नु नाम तत्र गकारः इत् अस्ति सः नाम गित् प्रत्ययः. इदानीम् अस्य कश्चन कार्यम् अस्ति नाम गुणनिषेधः तत्र अपि आवश्यकः भवति. इदानीं तत्र सिद्धान्तकौमुदीकारमत मतानुसारेण तत् कार्यं निर्वारयितुम् अस्मिन् सूत्रे गाकारस्य उपस्थितिः आवश्यकी भवति. परन्तु काशिककारमतानुसारेण तत्र नास्तिककारः तत्र केनचित् अनेन उपायेन केनचित् अनेन प्रकारेण इदं कार्यम् अपि साध्यं भविष्यति. अत एव इदानीं ककारद्वयं पठामः, यतोहि सिद्धान्तकौमुदी ग्रन्थे ककारद्वयं दृश्यते, परन्तु तत्र काशिकायाम् एकः एव अस्ति. अपि च एकः एव भवतु नाम तत्र अस्ति मतभेदः.
धन्यवादः.
अग्रे पश्यामः, अग्रे अस्मिन् विषये किञ्चित् पश्यामः. तर्हि
सार्वधातुकमपि इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः णित्वत् अस्ति. अतः यत् कार्यं णित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. सुदादिगणे श विकरणप्रत्ययः अपित् अस्ति, अतः णित् इव कार्यं करोति, नाम गुणबाधकं कार्यं करोति. गुणाभावे वर्णमेलने लिख् योगः अ योगः ति लिखति इति भवति. तर्हि सारांशः एवं यत् यत्र विकरणप्रत्यये पकारः नास्ति तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति. सुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः, यतः इत्संज्ञकपकारस्य अभावे गुणार्थं बाधा भवति. अस्तु, तर्हि सार्वधातुकमपि इत्येन सूत्रेण यः प्रत्ययः अपि प्रत्ययः अस्ति सः णित्वत् भवतु इति अर्थः. अत्र षविकरणप्रत्ययः षित् प्रत्ययः अपि च अपि प्रत्ययः अपि, तर्हि अपि प्रत्ययः णित्वत् भवतु. तर्हि यत् णित् कार्यं करोति तथा एव अपित् अपि कार्यं करोति. णित् कार्यं किमस्ति? गुणबाधककार्यमस्ति. तर्हि गुण अनन्तरं गुण अपि च वृद्धि कार्यं निषेधयति. तर्हि अपित् प्रत्ययः अपि गुणकार्यं निषेधयति. गुणाभावे लिख् धातौ इकारः तथा एव तिष्ठति. तर्हि लिख् योगः अकारः योगः ति योगे लिखति एव रूपं, न तु लेखति इति. यत् शकारस्य यत्र गुणप्रेरणार्थक लक्षणम् अस्ति तत् पकारस्य अभावे तस्य अवरोधः भवति. यदि पकारः अस्ति चेत् शकारस्य गुणप्रेरण लक्षणं सम्भवति. पकारः नास्ति चेत् तत् भवितुं न अर्हति.
विचित्रदायकः किं प्रेरणादायिनी शक्तिः,
प्रेरणादायिनी
भगिनि, तत्र शाकारस्य कथाम् इयं शक्तिः अस्ति कस्मात्, केन सूत्रेण वा?
केन सूत्रेण? सार्वधातुक अर्धधातुकयोः अनेन सूत्रेण.
न, यतोहि शकारः प्रत्ययः अस्ति चेत् तर्हि किं भवति? इदानीं षित् प्रत्ययः कश्चन षित् अस्ति चेत् तर्हि सः प्रत्ययः
षित् अस्ति चेत् तिङ्क्षित् गुणः भवति इति खलु?
गुणः भवति, परन्तु गुणः कथां भवति उक्तम् इदानीमेव. पुनरेकवारं तिंशित्
तिंशित् सार्वधातुकम् इति सूत्रमस्ति. तर्हि षित् षित् सार्वधातुकसंज्ञकः. अनन्तरं सार्वधातुक अर्धधातुकयोः अनेन सूत्रेण अन्तः अङ्गस्य एकः गुणः भवति. यदि लिख् धातुः स्वीकुर्मः चेत् पुगन्तलघुपदस्य च अनेन सूत्रेण गुणः भवितव्यं वस्तुतः.
न, तथा एव तादृशी एव मया प्रश्नः इदानीं, तादृशः प्रश्नः इदानीम् उक्तं तत्र अनेकदा त्रिवारं वा चतुर्वारं वा उक्तं तत्र शपः अथवा शकारस्य किं गुण किं तत्र गुणप्रेरणा भवति, गुणस्य प्रेरणदयिनी शक्तिः वर्तते. तत्र इयां शक्तिः तत्र कस्मात् तत्र आगच्छति, यतोहि षकारः प्रत्ययः अस्ति चेत् तर्हि षित् सर्वदा किञ्चित् सर्वदा तिक्मित्यनेन सार्वधातुकसंज्ञा प्राप्नोति. सार्वधातुकसंज्ञायां सत्यां तत्र तत् इमेद्वे सूत्रे तत्र प्राग्दृष्टे सूत्रे नाम सार्वधात्कर्तृकयोः पुगन्तलघुपदस्य च इदानीं सार्वधातुकसंज्ञायां सत्याम् एव इमे सूत्रे एव प्रवर्तेते.
आम्
तत्र सार्वधातुकसंज्ञायाः अभावे तत्र तयोः सूत्रयोः नास्ति एव प्रसङ्गः. अत एव षकारः तत्र तस्याः शक्तेः आश्रयः इति वक्तुं शक्यते. एवं तर्हि अग्रे 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 एका पद्मा भगिनी पतति वा अथवा तत्र कश्चन पद्मा भगिनी पद्मा भगिनी नास्ति किल भो तर्हि दीपा भगिनी अग्रे अपि पतति.
पूर्णसूत्रार्थः सार्वधातुकमपित् सार्वधातुकं यदपित् तद् नित्वत् भवति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रं गाङ्कुटादिभ्योन्यित् इत्यस्मात् नित् प्रत्ययः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित्. अत्र सूत्रस्य व्याकरणविश्लेषणम् अस्ति. सूत्रे पदद्वयमस्ति. प्रथमं पदमस्ति सार्वधातुकं, प्रथमाविभक्त्यान्तपदं प्रत्यन्तपदमस्ति. द्वितीयं पदमस्ति अपित् इति, तदपि प्रथमान्तम्. एतत् असम्पूर्णसूत्रम्. अनुवृत्तिः अस्ति ङित् इति, गाङ्कुटादिभ्यो ङित् इत्यस्मात् सूत्रात् ङित् इत्यस्य अनुवृत्तिः. तर्हि अनुवृत्तिसहितसूत्रमस्ति सार्वधातुकम् अपित् ङित् इति. ङिति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकस्थाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति. ग च क च ङ च तेषाम् इतरेतरद्वन्द्वः ङः इतः यस्य सः ङित् तस्मिन् परे ङिति, द्वन्द्वगर्भबहुव्रीहि समासः. अत्र गकारस्थाने ककारः खरि च इत्यनेन चत्वसन्धिः. ङिति च सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः, न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं ङिति च इकः गुणवृद्धि न. ङिति च ङिति अस्मिन् पदे गित् कित् अथवा ङित् अस्ति चेत् अस्तु पदत्रयमस्ति. ङित् इत्युक्ते गकार ककार ङकारः, तत्र समासः अस्ति इतरेतरद्वन्द्वसमासः. इतरेतरद्वन्द्वसमासः च ङित् इति पदं भवति. तस्य सप्तम्यन्तपदं ङिति इति. द्वन्द्वगर्भ बहुभिः इति अहं न जानामि महोदय.
इतरेतरद्वन्द्वः अस्ति चेत् ङः भवति. तत्र द्वन्द्वकर्मबहुव्रीहि समासः नास्ति तत्र, नाम तादृशः बहुव्रीहि समासः यस्य गर्भे द्वन्द्वः अस्ति. बहुव्रीहि समासः इदानीं सम्पूर्णं समासं पश्यामः इति चेत् यः समासः सः बहुव्रीहिः, परन्तु अस्या गर्भे इदानीम् अस्या किम् अस्या प्रक्रियायां तत्र द्वन्द्वसमासः अपि कुत्रापि उपस्थितः भवति. अत एव द्वन्द्वगर्भबहुव्रीहिः इति तत्र व्यवहारः कुत्रापि दृश्यते. अत एव
अनन्तरं गकारः ककारः मध्ये चर्त्वसन्धिः अस्ति खरिच इति सूत्रेण. तत्पूर्वम् इको गुणवृद्धि इति सूत्रेण पूर्णतया इत्युक्ते इको गुणवृद्धि अस्तु आन्तं सूत्रस्य अनुवृत्तिः अस्ति न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः आहत्य अनुवृत्तिसहितसूत्रमस्ति ङिति च इकः गुणवृद्धिः न.
प्रश्नः केचन स्युः चेत् कृपया. तर्हि सीता भगिनी अग्रे पठति वा.
महोदय, पाणिनिसूत्राणि षड्विधा संज्ञा च परिभाषा च विधिनियम एव च अतिदेशो अधिकारश्च षड्विधसूत्रलक्षणम् इति च निषेधकं सूत्रं नाम अनेन कार्यं निषिध्यते. निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति सार्वधातुकमपि कीदृशं चेत् सूत्रम् पाणिनिसूत्र षड्विधा भवति संज्ञा परिभाषा विधिनियम अतिदेश विधिनियम अतिदेश अधिकार
जानाति वा भगिनी तत्र ईदृशं प्रभेदं
भेदं
तत्र अष्टाध्यायीयः ग्रन्थः तत्र सूत्राणां षड्विध्यं वर्तते तत्र षड्विध्यं सात्विध्यं केभिः अपि उच्यते किमिश्चित् अपि उच्यते. तर्हि तत्र संज्ञासूत्रं जानाति कोऽपि कामपि तत्र
नामकरणं
यथा तर्हि किञ्चन
गुणः गुण
भवतु उदाहरणं तत्र सूत्रस्य उदाहरणं
किञ्चित् सार्वधातुकम् एकम् उदाहरणमस्ति
किञ्चित् सार्वधातुकं तत्र तत्र संज्ञासूत्रेषु कश्चन अस्ति तत्र नियामः प्रायिकः नियामः प्रायिकः नाम सर्वत्र नास्ति परन्तु प्रायः तादृशः नियामः अस्ति. इदानीं संज्ञासूत्रेषु यथा यत् अन्तिमं पदं वर्तते तत् पदं संज्ञा एव अस्ति यथा अस्माकं किञ्चित् सर्वधातुकं
तत्र वृद्धिरादेश
वृद्धिरादेश तत्र उच्यते प्रथमं सूत्रमस्ति अतः एवं मङ्गलार्थं वृद्धिः शब्दः प्रथमतया उपयुक्तं पदं तु अस्ति अस्ति तत्र सन्ति अन्य अपवादः तत्र अपृक्तसंज्ञस्य संज्ञाविधायकसूत्रं तादृशम् अदेङ्गुणः तथा तत्र अस्ति अयं इदानीं गुणः संज्ञा अदेङ् संज्ञी अपि च सर्वधातुकं तथा एव
महोदय संज्ञासूत्रेषु सर्वाणि पदानि प्रथमान्तम् एव भवन्ति खलु
प्रायः
उपदेशे जनुनासिक इत् उपदेशे जनुनासिक इत्
तथापि
द्विवचनं करणीयम्
एवं तथा एव उच्यते. इदानीं प्रायिकः तादृशनियामः दृश्यते इदानीं संज्ञा सर्वदा अन्ते स्यात् यत् प्राक् अस्ति तत् संज्ञी इति व्यवह्रियते. संज्ञा परिभाषा परिभाषा काचन दृष्टा अस्माभिः वा
परिभाषा महोदय येन विधिस्तदन्तरस्तदन्तस्य
अलौन्त्यस्यापि दृष्टा इदानीम्
अलौन्त्यस्यापि दृष्ट्वा
अपि च तत्र अनेकाः परिभाषाः सन्ति विधिः शासनविधिः
विधि कार्यं यदा भवति तदा तेन तस्मिन् सूत्रस्य विधिसूत्रम् इति नाम भवति. कार्यं विधीयते यथा
सार्वधातुकार्धधातुकयोः इति विधिसूत्रमेव खलु.
तस्य लोपः
समीचीनम्. अन्यत् नियामः नियामः वा अथवा नियामः इति कश्चन किं भवति सामान्यपदं तत्र प्रतिषेधः इति अस्ति एकतरः प्रभेदः अपि च अपवादः तत्र किञ्चित् च उच्यते तत्र किञ्चित् च इति एकम् उदाहरणमस्ति अस्या एव. अत एव तुदादिभ्योषः यः सूत्रं वसुधः तत्र सूत्रं स्वयमेव न दृष्टं परन्तु तत्र अग्रे दृश्यते. इदानीं ष प्रत्ययविधायकं सूत्रं यत् अस्ति तत् सूत्रं षप् प्रत्ययविधायकसूत्रस्य अपवादः अथवा नियामः इति वक्तव्यम् अपवादः अस्ति. भवतु अतिदेशः दृष्टः अद्य अधिकारः अधिकारसूत्रं ज्ञायते किमपि
अधिकारसूत्रस्य कार्यं किमपि न परन्तु तत् सूत्रस्य अधः बहवः सूत्राणि वर्तन्ते यत्र तत् सूत्रस्य पदम् अनुवर्तते.
यथा
कृपया म्यूट् करोतु.
कस्यापि टिवि तथा अस्ति टिवि वा अथवा सर्वे म्यूट् कुर्वन्तु कृपया. ओके अहम् एव तत्र मम तत्र शक्तिः अस्ति. इदानीं किं कुत्र स्मः अधिकारसूत्रं ज्ञायते किञ्चन उदाहरणं
संहितायाम् इति अस्ति खलु.
एवं संहितायाम् अथवा अस्माकं तत्र यः तिङान्तप्रकरणं वर्तते तथा धातोः किञ्चन अस्ति तत्र बहु धातु अधिकारः तत्र धातु अधिकारद्वयाम् एव दृश्यते धातोः इति किञ्चन अधिकारसूत्रमस्ति. भवतु अपि च अधिकारः इति तावदेव किञ्चित् च इति निषेधकं सूत्रम् अपि इदानीं सार्वधातुकम् अपि अथवा अपि च अतिदेशः इदानीं सार्वधातुकम् अपि इति कीदृशं सूत्रं कोऽपि वदतु.
इत्युक्ते अनुवृत्तिसहित अस्ति अपि सार्वधातुकं नित्यते तर्हि अतिदेशः
वा
सार्वधातुकम् अपि इति सम्यक् सूत्रं खलु.
न न भगिनि इदानीं सूत्रार्थः कः वदतु कृपया.
सार्वधातुकम् अपित् नित्वत् इति सूत्रं खलु तर्हि अतिदेशः यत् अपित् अस्ति तत् नित्वत् भवतु इति.
अतिदेशसूत्रः इदानीम् उक्तं भवत्या एव उक्तम् इदानीं यत्र कश्चन वस्तुतः अविद्यमानः धर्मः अन्यत्र कुत्रापि अतिदिश्यते तत्र तत् अतिदेशविधायकं सूत्रं यत् वर्तते सः अतिदेशसूत्रम् एव व्यवह्रियते यथा सर्वधातुकम् अपि तत्र शः इति प्रत्ययं स्वीकृत्य पश्यामः तत्र ङः कोऽपि नास्ति परन्तु अनेन सूत्रेण अयं प्रत्ययः ङित् इति उच्यते. ङित् इति उच्यते चेत् तर्हि तत्र सूक्ष्मदृष्ट्या परिशीलयामः इति चेत् ङित्वत् अस्ति नाम ङिति ये केऽपि धर्माः गुणाः अथवा तत्र गुणाः सन्ति ते सर्वे सार्वधातुके अपिति प्रत्यये अपि भवन्तु इति तत्र सूत्रकारस्य अभिप्रायः.
अत्र वस्तुतः सूत्रं केवलं सूत्रमेव पश्यामश्चेत् विना अनुवृत्तिं संज्ञा इव दृश्यते, परन्तु अनुवृत्तिसहितं
तत्र अनेकदा तादृशं तादृशी अस्ति स्थितिः, तथा पाणिनीयसूत्रं व्याख्यानात् विना तत्र न पतनीयम् इति मन्ये. किमपि तत्र स्पष्टं न स्यात्. भवतु नाम तर्हि प्रश्नाः सन्ति चेत् तर्हि पृच्छन्तु, नास्ति चेत् समर्पयामः, न सन्ति चेत् समर्पयामः. अस्तु, अग्रिमे पाठे कः विषयः? गुणकार्यस्य अभ्यासः अस्ति. तत्र बहु
एतत् गृहपाठरूपेण कुर्मः वा महोदय?
गृहपदरूपेण कुर्वन्तु कृपया. इदानीं तत्र किञ्चित् तत्र दृष्ट्वा तर्हि तत्र यत् अन्यत् करपत्रमस्ति तदेव पश्यामः, यतोहि तत्र किमपि नास्ति. इदानीं सर्वदा पुगान्तलघुपदस्य च सर्वदा अर्धातुकसर्वदातुकयोः इति तत्र सूत्रद्वयं सर्वदा एव आगच्छतः. परन्तु किञ्चित् पश्यामः, तदनन्तरं नूतनं कारपत्रं प्रतिष्यामः. भवतु, धन्यवादः. तर्हि समर्पयामः.
धन्यवादः महोदय.
धन्यवादः महोदय.
धन्यवादः महोदय.
शुभरात्रि.